जगद्यां जगत् तेन त्यक्तेन भुञ्जीथा मा गृध कस्य स्विद्धनम् कुर्वन्नेवेह कर्माणि जिजीविषे च तंसमाः एवं त्वैनान्यतेतोऽस्ति न कर्म लिप्यते नरे असुर्यानाम ते लोका अन्धेन तमसावृताः तांस्ते प्रेत्याभिगच्छन्ति ये के चात्महनो जनाः अनेजदेकं मनसो जवीयो नैनदेवा आप्नुवन् पूर्वमर्षत् तद्दावतो ज्ञानथे तिष्ठत् तस्मिन् पो मातरिष्वा दधाति तद्देजति तन्नैजति तद्दूरे तद्वन्तिके तदन्तरस्य सर्वस्य तदु सर्वस्यास्य बाह्यतः यस्तु सर्वाणि भूतान्यात् मन्येवानुपश्यति सर्वभूतेषु चात्मानं ततो न विजुगुप्सते यस्मिन् सर्वाणि भूतान्यात् मैवा भूद्विजानतः तत्र को मोहः कः शोकः एकत्वमनुपश्यतः सपर्यगाचुक्रमकायमव्रणमस्नाविरं शुद्धमपापविद्धम् कविर्मनुषी परिभूस्वयं भूयाथाथ्यतोथान् व्यददाश्चाश्वतीभ्यः समाभ्यः अन्धन्तमः प्रविशन्ति ये विद्यामुपासते ततो भूय इव ते तमो यौ विद्यायां रताः अन्यदेवाहुर्विद्यया अन्यदा अहुर्विद्यया इति शुश्रुमधीराणां येनस्तद्विचक्षिरे विद्यां च विद्यां च यस्तद्वेदो भयं सह अविद्यया मृत्युं तीर्त्वा विद्यया मृतमश्नुते अन्धन्तमः प्रविशन्ति ये सम्भूतिमुपासते ततो भूय इव ते तमो यौ सम्भूत्यां रताः अन्यदेवाहुसम्भवाद् अन्यदाहुरसम्भवाद् इति शुश्रुमधीराणां येन नस्तद्वि च चक्षिरे सम्भूतिं च विनाशं च यस्तद्वेदो भयं सः विनाशीनं मृत्युं तीर्त्वा सम्भूत्यामृतनश्नुते हिरण्मयेन पात्रेण सत्यस्य पिहितं मुखं तत्त्वं पूषन्न पावृणो सत्यधर्माय दृष्टये पूषन्नेकर्षेयमसूर्य प्राचापत्यव्यूहरश्मीन् समूह तेजो यत्ते रूपं कल्याणतमं तत्ते पश्यामि योऽसावसौ पुरुषः सोऽहमस्मि वायुरनिलम् अमृतमथेदं भस्मान्तं शरीरम् ॐ क्रतो स्मर कृतं स्मर क्रतो स्मर कृतं स्मर अग्नेनय सुपथारायेऽस्मान् विश्वानि देववयुनानि विद्वान् योऽयोध्यस्मै जुहुरान् मेनो भूयिष्ठान्ति नम उक्तिं विधेम ॐ शान्तिः शान्तिः शान्तिः।